अथ श्रीवेङ्कटेश उषःकालस्तोत्रम्। प्रातस्मराम्यनुदिनं हृदि वेङ्कटेशं पादारविन्दयुगलं मुनिभिर्विचिन्त्यं ब्रह्मादिदेवगणसिद्धिकरं परं च योगीश्वरैः स्वहृदये परिभावितं च। प्रातस्मराम्यनुदिनं हृदि वेङ्कटेशं कर्णावलम्बिमणिकुण्डलमण्डिताढ्यं भक्ताभयङ्करकरं जघने दधानं चक्रं दधानमपरेण परेण शङ्खम्। प्रातर्भजाम्यनुदिनं हृदि वेङ्कटेशं बालार्ककोटिसमदीधितिकं शरण्यं लक्ष्मीपतिं गरुडवाहनमब्जनाभम्। श्रीशेषपर्वतवने च कृताधिवासं श्रीवेङ्कटाचलपते तव पादपद्म सेवां सदा दिशकृपारसविश्वपाल। अद्यागतानि दुरितानि निरस्य देव वाञ्छाफलानि सततं मम देहि देहि। अच्युतानन्त गोविन्द विष्णो वेङ्कटनायक पाहि मां पुण्डरीकाक्ष शरणागतवत्सल। इति श्रीस्कन्दपुराणे श्रीवेङ्कटेश उषःकालस्तोत्रम्।